श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्र मोदी देशद्वयस्य यात्रां विधाय दिल्लीं प्रति प्रस्थितः। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् दशक चतुष्टयस्य अनन्तरं एषा उच्चस्तरीय यात्रा भारत ऑस्ट्रिया सम्बन्धान् व्यापकतया सुदृढीकरिष्यति। गतदिने प्रधानमन्त्री वियना नगरे ऑस्ट्रिया राष्ट्राध्यक्षेण कार्ल नेहमरेण सह द्विपक्षीय सम्बन्धानां विविध परिणामानां विषये चर्चां कृतवान्। एतेषु व्यापारः, निवेशः, विज्ञानम्, प्राविधिकी, हरितोर्जा, कृत्रिम बुद्धिमत्ता, नवोद्योगाः, पर्यावरणम्, जलवायु परिवर्तनम्, सांस्कृतिक सहकार्यम्, जनसम्बन्धाश्चेति विषयाः प्रमुखाः आसन्। पारस्परिक हितस्य क्षेत्रीय वैश्विक विषयेषु अपि नेतारौ विचारणां कृतवन्तौ। उपवेशनस्य अनन्तरं वार्ताहर वक्तव्ये श्रीमोदी अवदत् यत् तयोः चर्चा मानवता जलवायु परिवर्तनातंकवाद विषयेषु अपि अभवत्। प्रधानमन्त्रिणा उक्तं यत् लोकतन्त्रं विधिराज्यम् इत्यादिषु मूल्येषु विश्वासः भारत ऑस्ट्रिया सम्बन्धस्य दृढ मूलाधाराः सन्ति। सः अवदत् यत् परस्पर विश्वासेन सहहितैः च सम्बन्धाः सुदृढाः भवन्ति। प्रधानमन्त्री अवदत् यत् सः ह्यः तत्रत्य राष्ट्राध्यक्षेण सह अतीव महत्वपूर्णं सफलं च वार्तालापं कृतवान्। परस्पर सहकार्यम् अधिकं सुदृढं कर्तुं नूतनाः सम्भावनाः अपि ताभ्याम् अंकिताः। प्रधानमन्त्री अवदत् यत् तौ विश्वे प्रचलितानां सर्वेषां संघर्षाणां विषये अपि विस्तरेण चर्चां कृतवन्तो, यत्र यूक्रेन पश्चिमैशिया देशयोः स्थितिः अपि अन्यतमा आसीत्। श्रीमोदी अवदत् यत् एषः युद्धस्य समयः नास्ति। चर्चावधौ उभौ अपि नेतारौ संयुक्त राष्ट्र संघस्य अन्येषु च अन्ताराष्ट्रिय संघटनेषु परिष्कारस्य आवश्यकतायाः विषये अपि बलं दत्तवन्तौ। श्रीनेहमरः अवदत् यत् आधारभूत संरचनायाः, समाजे प्राविधिकीकरणस्य, आधारभूत संरचनानां विकास सन्दर्भे च भारतस्य सफलता प्रभावशालिनी वर्तते। ततः पूर्वं वियना नगरे प्रधानमन्त्रिणः नरेन्द्र मोदिनः समारोहपूर्वकं स्वागतम् अभवत्। सः राष्ट्रद्वयस्य यात्रायाः द्वितीय चरणे परह्यः मॉस्कोतः वियना नगरं प्राप्तवान्। बद्रीनाथ यात्रा द्वितीय दिनेऽपि उत्तराखण्डे चमोली जनपदे भूस्खलन कारणात् प्रबाधिता जाता। तत्रान्तरे उत्तरप्रदेश सर्वकारः तेषां कृषकाणां कृते भूमिपट्टानि प्रदास्यति येषां कृषिभूमिः जलाप्लावकारणात् नष्टा जाता। मुख्यमन्त्री योगी आदित्यनाथः प्लवग्रस्त जनपदेषु पीलीभीत, लखीमपुर, खीरी जनपदेषु विमान सर्वेक्षणं कृत्वा गतवासरे उद्धार कार्यक्रमस्य समीक्षां कृतवान्। केन्द्रीय स्वास्थ्य मन्त्री जगत प्रकाश नड्डा स्वमन्त्रालयस्य वरिष्ठाधिकारिभिः सह ह्यः एकं समीक्षोपवेशनम् आकारितवान्। उपवेशनेऽस्मिन् राष्ट्रे डेंगू इत्यस्य परीक्षण तत्परतायाः आकलनं कृतम्। बुधवासरे नवदिल्ल्यां पत्रकार सम्मेलनं सम्बोधयन् नड्डा महोदयः अवदत् यत् मन्त्रालयः डेंगू निवारणस्य, निरोधस्य, प्रबन्धनस्य च योजनाः सज्जीकरोति, राज्यैः सह मिलित्वा च कार्यं कुर्वन् अस्ति। सः सूचितवान् यत् मन्त्रालयः शीघ्रमेव अहर्निश डेंगू सहायता सेवां प्रारभते तथा च राज्येभ्यः आगामिषु चतुष्पञ्च दिवसेषु स्वस्य अपि सहायता सेवां प्रारम्भं कर्तुम् उक्तमस्ति। सर्वोच्च न्यायालयेन ह्यः उक्तं यत् आपराधिक प्रक्रिया संहितायां पञ्चविंशत्युत्तरैकशततम्याः धारायाः अन्तर्गतं मुस्लिम महिला स्वपतेः भरण पोषणस्य कृते धनप्राप्तेः अधिकारिणी अस्ति। न्यायाधीशस्य वीवी नगरथना इत्यस्य, अगस्टिन जॉर्ज मसीहस्य च समाविष्टा पीठिका अस्मिन् प्रकरणे याचिकां निरस्तां कृतवती।